सर्वेषां स्वागतम्। आरम्भं कुर्मः वर्गम्। अस्तु, प्रथमं प्रार्थनां कुर्मः। पठामि संस्कृतं नित्यं, वदामि संस्कृतं सदा, ध्यायामि संस्कृतं ध्यायामि संस्कृतं सम्यक्, वन्दे संस्कृतमातरं, संस्कृतस्य प्रसाराय नैजं सर्वम्यहम्। संस्कृतस्य सदा भक्तो, वन्दे संस्कृतमातरं, संस्कृतस्य कृते जीवन्, संस्कृतस्य कृते यजन्। आत्मानमाहुतं मन्ये, वन्दे संस्कृतमातरं, हिन्दुधर्मं समाजं च, पवित्रां संस्कृतिं तथा, संरक्षणं कुर्याम विश्वं शान्ति समन्वितम्। ॐ शान्ति 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 हरि हरि गुरु नमः हरि ओम्। अस्तु, वयम् इदानीम् अभ्यासपुस्तके सः विना इति पठामः खलु, सः अपि च ततः पूर्वं किं साधनम् उपयुज्य अस्तु किं पदम् उपयुज्य वयं एकं कार्यं कुर्मः इति सूचनार्थम्। उदाहरणार्थम् अहं हस्तेन खादामि, हस्तः हस्तेन, चषकः चषकेन, चषकेन पिबामि। अत्र सः न आगच्छति, किमर्थम् इत्युक्ते वयं मिलित्वा न कुर्मः खलु। अहं चषकम् उपयुज्य अहं पिबामि, चषकेन पिबामि, चषकं मया सह न पिबति, अतः अत्र सः न आगच्छति। अवगच्छन्ति वा? नो चेत् पृच्छन्तु। अस्तु अस्तु, अत्र रामः रावणः ओके उत्तम। सो अत्र बालिका अङ्कन्या लिखति, अङ्कन्या स्त्रीलिङ्गमस्ति चेत् थ्याङ्क् यु फार् टेलिङ्ग् मी।
नमस्ते भगिनी, बीना अस्मि, सोरि ऐ एम् लेट्।
चिन्ता मास्तु भगिनि, स्वागतं। अस्तु ओके, ग्लाड् महोदय। अत्र वयम् अङ्कन्या चित्रं लिखामः, अङ्कनी अङ्कन्या। सो अत्र स्त्रीलिङ्गम् अस्ति चेत् या इति परिवर्तनं करणीयम्। अङ्कनी लिखामि इति शुद्धं नास्ति, अशुद्धम्। अङ्कन्या लिखामि, अत्र अङ्कन्या सह न आगच्छति। किमर्थम् इत्युक्ते अहम् अङ्कनी मिलित्वा कार्यं न कुर्मः। स्वागतं भगिनि, धन्यवादः, स्वागतम्। अस्तु, सो अत्र सः न आगच्छति, केवलं वस्तु उपयुज्य वयं यथा कार्यं कुर्मः तत्र सः न आगच्छति। कर्तर्या, कुञ्चिकया, द्विचक्रिकया, स्यूतः स्यूतेन, लोकयानेन, सीवनयन्त्रेण, हस्तेन, कन्दुकेन क्रीडामि, कन्दुकेन क्रीडामि, अत्र सः न आगच्छति। यत्र एकं द्वे अथवा त्रीणि अथवा बहु जनाः मिलित्वा कार्यं कुर्वन्ति तत्र सः आगच्छति। अहं मम अम्बया सह सम्भाषणं करोमि, अम्बा मया सह सम्भाषणं करोति। विपरीतदिशि अपि वयं वक्तुं शक्नुमः चेत् सः योजयितुं शक्नुमः. अवगच्छन्ति वा? बहु मुख्यभेदः. यत्र सः उपयोगं कर्तुं शक्नुमः, यत्र सः उपयोगं कर्तुं न शक्नुमः इति अवगमनं बहु मुख्यम्. अवगच्छन्ति वा सर्वे? ओके. न इति न धन्यवादः. न इति भवन्तः न वदन्ति चेत् अवगच्छन्ति इति. अस्तु, अत्र अस्तु, पुरुषः अस्ति चेत् एन, अहं मित्रेण सह, नपुंसकलिङ्गं, मित्रेण सह नाटकं पश्यामि. मित्रम् अहम् अस्ति चेत् मया इति आगच्छति, मया सह नाटकं पश्यति, पश्यति इति आगच्छति. अस्तु, एतत् वाक्यं वयं जानीमः खलु, गोपालः माधवेन सह अभ्यासं करोति. माधवः गोपालेन सह अभ्यासं करोति. एन एन अत्र एषा सीतया सह तिष्ठति. सीता एषा इति अस्ति चेत् अया आगच्छति खलु, एतया सह तिष्ठति. एषा सीतया सह तिष्ठति, सीता एतया सह तिष्ठति. सुरेशः भगिन्या सह सम्भाषणं करोति, भगिनी सुरेशेन सह सम्भाषणं करोति. अत्र माता इति पदं मात्रा इति वदनीयम्. माता पुत्र्या सह कार्यं करोति, पुत्री मात्रा सह कार्यं करोति. अत्र बहुवचनं, बहुवचनरूपं पुल्लिङ्गमस्ति चेत् ऐः इति आगच्छति. ऐः इति परिवर्तनं भवति. अध्यापकः छात्रैः सह प्रवासार्थं गतवान्, अध्यापकः गतवान्. कैः सह? छात्रैः सह. परन्तु अत्र छात्रा इति पदं स्त्रीलिङ्गमस्ति चेत् छात्राभिः, अत्र बालिकाभिः इति अस्ति खलु, तथा एव छात्राभिः सह प्रवासार्थं गतवान् इति वदामः. लता सखी सख्यः, बहुवचनं, सखी सख्यौ सख्यः बहुवचनं, सखी इति मूलपदं, सख्यः बहुवचनं, सखी ईकारान्तपदम्, अतः सखीभिः सह इति अस्ति. अग्रे गच्छामः. विना इति पदम्. सो अत्र विपरीतदिशि अपि वयं वक्तुं शक्नुमः चेत् एव सहम् उपयोगं कर्तुं शक्नुमः. उदाहरणार्थं लता सखीभिः सह क्रीडति, सख्यः लतया सह क्रीडन्ति इति वक्तुं शक्नुमः. सः विपरीतदिशि अपि, विपरीतदिशि आपोजिट् side also, opposite direction also, if we can say it, then we can use saha. Parantu atra vina iti padam dvitiya vibhakti api cha tritiya vibhakti api upayogam kartum shaknumah. Jalam vina meenah na jeevate, jalena vina jeevanam na kartum shaknumah. मीनः वा वयं वा, वयं जलं विना जीवनं न कर्तुं शक्नुमः. सो अत्र सः न योजयितुं कर्तुं शक्नुमः खलु, सः न योजनीयं, विना एव. किम् इत्युक्ते जलं मीनः विना भवति खलु, परन्तु मीनः जलं विना न जीवति. अवगच्छन्ति वा भेदः? मीनः जलं विना जीवति, परन्तु जलं मीनः विना भवति. सो अत्र विना योजयितुं शक्नुमः. So, somebody asked a question about Vina. Any questions about Vina?
Vina avyayam
bhagini. Aam bhagini. Dvitiya upayogam tata tritiya upayogam.
Aam, aam. Tritiya vibhaktiya api upayogam kartum shaknumah dvitiya api vib. Aam. अस्तु महोदय पृच्छतु.
What I understand is you are saying vina should not be cannot be used in the reverse direction, am I right?
It will, no, I mean not should not, need not be.
Need not be, okay.
Need not okay. be. उदाहरणार्थम् अहं मम अव्ययम् अव्ययमेव विना सह द्वयमपि अव्ययमेव. अस्तु अस्तु, ध्वनिः आगच्छति, अहं पुनः म्यूट् करोमि, एकनिमिषं म्यूट् करोमि. Yeah, so I can say aham mama ambam vina sambhashanam na kartum shaknomi. Parantu mama amba can do a sambhashanam without me, with somebody else. Aham mama putram vina chalnachitram na pashyami. Parantu mama putraha मया विना अथवा मां विना सम्भाषणं कर्तुं शक्नोति अथवा दूरदर्शनं द्रष्टुं शक्नोति. सो इट् डजन्ट् हाव् टु पास् द टेस्ट्, द रिवर्स् टेस्ट्, द विना विना डजन्ट् हाव् टु पास् द टेस्ट्. अवगच्छन्ति वा?
यु सेड् सः पुत्रेण सह आपणं गच्छति, सा सख्या सह, सो आपोसिट् थिङ्ग् वर्क्स्, बट् वाट् इफ् ऐ डोण्ट् वाण्ट् यूस् सः देर् आल्सो, दट् इस् ओके?
सो हौ विल् यु से विदौट् सः?
रामः रावणेन युद्धं कृतवान्,
रावणेन, यु हाव् टु से रावणेन सह भगिनि,
सः, ओके.
You have to use saha there.
With people
you have to use saha. With people means even animals.
Okay.
If both are doing the work together, then you have to use saha. If I am doing the work using some object, then I cannot use saha. अहं कार्यानेन कार्यालयं गच्छामि, तत्र सः न आगच्छति. अहं मम पुत्रेण सह कार्यानेन कार्यालयं गच्छामि, पुत्रेण सह, परन्तु कार्यानेन कार्यालयं गच्छामि. अस्तु, अवगच्छन्ति इति अहं चिन्तयामि.
Can I just check that I've understood it properly? So, example, aham chamasena khadami. But if I want to use it without, then I would say aham chamasam or chamasena vina na khadami.
Chamasam vina, chamasena vina na khadami. Uttama.
So I can use both.
Yeah, you can use both.
Okay, brilliant. Thank you.
Anya prashna asti va?
Bhagini. Will you be covering that homework sheet? Today? Tatra prichamaha.
Astu. अस्तु अत्र अहं सारांशविषयं वदामि सम्मरि अस्तु अहम् इति अस्ति चेत् मया सह वयम् इति च अस्माभिः सह अस्माभिः सह भवान् भवता सह भवन्तः भवद्भिः सह भवती भवत्या सह भवत्यः बहुवचनं भवती भिः सह छात्रः छात्रेण छात्राः छात्रैः सह पुल्लिङ्गपदम् छात्रा छात्राः स्त्रीलिङ्ग छात्रया सह छात्राभिः सह युवती ईकारान्त स्त्रीलिङ्ग युवती युवत्या सह युवत्यः बहुवचनं युवतीभिः सह मित्रं मित्रेण सह मित्राणि मित्रैः सह कः केन सह किमपि केन सह के अथवा कानि कैः सह का कया सह काभिः काः इति अस्ति चेत् काभिः सह इति रूपाणि सो अत्र पुल्लिङ्ग छात्रः इति अस्ति चेत् छात्रेण छात्रैः नपुंसकलिङ्गम् छात्रेण मित्रेण मित्रैः सह एवमेव सर्वनामपदं पुल्लिङ्ग केन कैः सह पुल्लिङ्ग नपुंसकलिङ्ग विहाय अदर् देन् दट् एक्सेप्ट् दट् विहाय सर्वत्र भिः एव आगच्छति अहं वयम् अस्माभिः पुल्लिङ्गं वा स्त्रीलिङ्गं वा भिः एव अस्माभिः वयं सर्वे पुल्लिङ्ग अस्ति चेत् अपि सन्ति चेत् अपि अस्माभिः एव भवान् इति पुल्लिङ्गपदं परन्तु भवद्भिः अवगच्छन्तु भवती इति अस्ति भवतीभिः काभिः अस्तु अस्तु ऐ कम् वित् यु सिङ्ग्युलर् प्लूरल् टु द टेम्पल् उषा भगिनी अनन्तरं शारदा भगिनी
विच् वन् यु वाण्ट् मी टु डु भगिनी फस्ट् वन्
या फस्ट् वन्
ओके अहम् ऐ रोट् पुल्लिङ्गं वुड् बि एकवचनं
बट् दिस् इस् आल् स्त्रीलिङ्ग भगिनी स्त्रीलिङ्ग
ओ ऐ डोण्ट् नो ऐ रोट्
it's okay bagini if you did the second one we'll
no 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 I just read out what I wrote you tell me whether I was right or wrong aham bhavatah mandiram agachami and then bhavadbihi sah no aham bhavadbihi sah mandiram agachami
उत्तमं भगिनि उत्तमम् शारदा भगिनी वित् होम् डु यु गो टु द टेम्पल् यूसिङ्ग् द सेम् सेण्टेन्स् भवद्भिः भवता सह
भवती
स्त्रीलिङ्ग सो लेट् से वि नो इट् इस् स्त्रीलिङ्ग इफ् वि डोण्ट् नो केन सह ओके इफ् वि डोण्ट् नो भवति
कया सह मन्दिरं गच्छति
कया सह मन्दिरं गच्छति उत्तमं कया सह मन्दिरं गच्छति उत्तमं बहुवचनं कया काभिः सह मन्दिरं गच्छति उत्तमम् एकवचनं कया सह एव पर्याप्तम् ओके वि डोण्ट् हाव् टु हाव् टु आस्क् इन् बहुवचनं कया सह इस् इनफ्
दिस् इस् इन् स्त्रीलिङ्गं
कया स्त्रीलिङ्ग कया सो अत्र अस्ति खलु का अस्ति चेत् कया सह गच्छति विथ् होम् डु यु खलु भवती कया सह मन्दिरं गच्छति अस्तु गोपिका भगिनी अनन्तरम् अम्ब
अहं भवता सह आपणम् आगच्छामि बहुवचनम् अहं भवद्भिः सह आपणम् आगच्छामि केन सह भवान् आपणं गच्छति
बहुवचनं
कैः सह भवान् आपणं गच्छति
उत्तमम् सर्वे अवगच्छन्ति वा प्रश्नः अस्ति चेत् पृच्छन्तु अस्तु अम्ब
अम्ब गच्छामि आगच्छामि
पुनः वदतु भगिनी
गोपिका भगिनी पुनः वदतु गोपिका भगिनी
अस्तु भगिनि अहं भवता सह आपणम् आगच्छामि अहं भवद्भिः सह आपणम् आगच्छामि केन सह भवान् आपणं गच्छति कैः सह भवान् आपणं गच्छति
भवतः इस् युवर् खलु युवर् भवतः नाम
इट् शुड् बि अहं भवान् सः इस् सः
न भवता सह
भवता सह धन्यवादः भगिनि
अस्तु पृच्छतु भगिनि
अहं
वयं सह ऐ डोण्ट् अण्डर्स्टाण्ड् भगिनि
बिकास् क्वेशन् इस् ऐ कम्प्लीट् यु सिङ्ग्युलर् एण्ड् प्लुरल् टु द शॉ सो ऐ कम्प्लीट् यु दट् मीन्स् अहम् आगच्छतु वयं
नो नो हौ टु भगिनि सो so when you say aham agachatu na agachati kalo I'm going to mute everybody except Chetaki Bagini please unmute Chetaki Bagini unmute karo to okay so atra when you say aham you cannot use any other ending for kriya padam except me kalo agachami So, agachatu you use for bhavan or bhavati. Bhavati agachatu, bhavan agachatu. So, under normal condition, that is the thing. Bhavan agachatu, bhavati agachatu. For aham, you say only agachami. And also, the kriya padam goes at the end of the sentence, usually. That is the niyama. Okay. So, you say aham and then for you bhavan we have it on top bhavata sah aham bhavata sah agachami kutra apanam that's it so atra vayam na agachati we are not coming you I am coming with you So, with you, bhavata saha, eka vachanam, bahu vachanam, bhavad bihi saha. Avagachati va, bhagini, ketaki bhagini.
So, bhagini, I ask question, kena saha, kena saha, apanam gachasi, I don't know that.
Yeah, so with who? No, instead of gachasi, you say gachati. Because right now we are not studying Madhyama Purusha. Okay. Only Madhyama Purusha we have C. So okay. We have been studying only P, tu and me. That's it.
Okay.
So we say kena saha.
Kena saha apanam gachati.
Uttamam. Kena saha bhavan apanam gachati. Athava kena saha apanam gachati. Uttamam.
Okay, Bhagini.
But here you cannot use vayam. Okay? We didn't say vayam. Only for you we have the singular and plural.
But
Bhagini, vadatu. Bhagini? Yeah, I am going with you, Kalo. So the okay, why is it so noisy? Astu. So only for you, singular and plural is there, right? So tatra eva, singular, plural. Eka vachanam, bahu vachanam. Not for I.
Okay. Astu, Bhagini.
Astu. Amba.
Bhagini, I want one more clarification.
Question is still left it as such. Normally, gachami is for going and agachami is for returning. That is what the normal way gachami, agachami is used. Here, coming with you means, is it gachami or agachami?
Okay. So, you can say, I go with you. Maybe. Okay.
Because normally, the way it is used is gachami is for going, agachami is for returning. Correct?
Correct. Correct. So I will have to change this to go. Correct? That is your point. Correct,
yeah,
Mahadeya?
No, I know. The word come is understand. Normally we use in English, come is a commonly used word. But what correct. I understand is gachami is a more relevant thing than agachami here.
Correct. So I'll change it to go. Okay. Uttam. Aham bhavata saha apanam. No, but here Mahadeya, they are going. Like you, okay? Hmm. All those people are going. So I'm coming with you.
Yeah, because they are also going to the shop only. It's not returning from the shop. I'm just, my concept that I'm getting lost is that gachami means I'm going to a place, agachami means I'm returning from a place.
Correct. But when we
so
say,
in this case, you are going.
Yeah, in this case, they are all going. So you say, I'm coming with you.
Okay. So whichever way you use, I think it will not create a problem.
No, it shouldn't create a problem.
But you can also say I will go with you, right? Because I will come with you.
Yes. It doesn't matter, but however you understand it. Okay?
Okay.
The concept, the main thing is with you. Okay? So I don't want to waste too much time here. We'll just move on. Okay. So Amba, come with me to the movie theater.
Hello.
Vadatuma. Come with me to the movie theater. Amma. Amba, vadatu.
Maya saha chalanachitra kendram gacchatu.
Agacchatu, uttama. Maya saha asmabhihi saha
chalanachitra kendram agacchatu.
Chalanachitra mandiram kendram agacchatu, uttama. 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 Dhanyavadaha. Anantaram Malati Bhagini, Anantaram Savita Bhagini. Dhanyavadahamba. Astu. With whom does the boy go to school?
With whom? I can't see the upper part of the page.
Astu.
With whom does the boy balakaha? With whom? Kena saha vidyalayam
gachati eva gachati
gachati
agacchati.
So the to will come only when we say you.
You, okay.
You go to school. You, when you, but when you ask the question, it comes only as ti. The to comes only when you are telling somebody to go.
Telling somebody to go.
Yeah. Bahuvachana bhagini?
Bahuvachana. Balakaha.
कैः सह
विद्यालयं गच्छति.
कैः सह विद्यालयं गच्छति. उत्तमम्. सविता भगिनी, अनन्तरं सागरी भगिनी. ओके,
यस् भगिनि. यस् भगिनि, द बाय् गोस् वित् द टीचर्. बालकः शिक्षकेन सह विद्यालयं गच्छति. बालकः शिक्षकेन सह विद्यालयं गच्छति.
करेक्ट् भगिनि, सम्यक्. बहुवचनं
बहुवचनं बालकः बालकः शिक्षकैः सह विद्यालयं गच्छति.
शिक्षकैः सह विद्यालयं गच्छति. अवगच्छति वा? अस्तु. सागरी भगिनी, अनन्तरं केतकी भगिनी. सागरी भगिनी, इदानीं
विथ् होम् डस् द गर्ल् गो टु द प्ले ग्रौण्ड् वित्?
सारी,
केन सह बालिका क्रीडाङ्गणं गच्छति?
केन सह, कया, केन वा कया वा भगिनि?
Since we don't know the lingam.
Uttama. Since we don't know, it is
default.
Correct, bagini. Uttama. Uttama. Since we don't know, it is kena. Uttama. Okay.
Bagini, you say that means ka adhyapika. Right?
No, but here adhyapakaha is correct because it's pullinga padam.
M is there, then pullinga. Otherwise, F is, then it is a strilinga.
F is strilinga. Correct. Correct. Okay. So the in the next sentence, it is going to be strilinga. Ketaki bagini. The girl goes with the teacher to the playground.
बालिका अध्यापिका सह क्रीडाङ्गणे गच्छति.
क्रीडाङ्गणं गच्छति. क्रीडाङ्गणं आल्रेडि देर् देन् यु से क्रीडाङ्गणे अस्ति, बट् दे आर् गोयिङ्ग् टुवर्ड्स् इट्, सो क्रीडाङ्गणं गच्छति. अनन्तरम् अध्यापिका सह इति शुद्धं नास्ति खलु? अध्यापिका सह इति शुद्धं नास्ति. So we have to change the word. We have to change the word. How do we change the word? Adhyapika iti asti chet. How do we modify the word?
Shikshika?
No. Okay. Even if we take shikshika. So we have chatra, right? How did we change it?
शिक्षिकाया
शिक्षिकया इदानीं वदतु बालिका
बालिका शिक्षिकया सह क्रीडाङ्गणं गच्छति
क्रीडाङ्ग पुनः वदतु क्रीडा
क्रीडाङ्गणं
क्रीडाङ्गणं गच्छति बालिका शिक्षिकया सह क्रीडाङ्गणं गच्छति अस्तु बहुवचनं कथं भवति भगिनि
बहुवचनं कया सह
बालिका
कया सह क्रीडाङ्गणं गच्छति
प्रश्न उत्तमं प्रश्न उत्तमं भगिनि इदानीं बहुवचनं वदतु बालिका
अध्यापिका न भगिनि ऐ रोट् बालिका अध्यापिकी अध्यापिकया सह क्रीडाङ्गणं गच्छति
उत्तमं दट् इस् एकवचनं भगिनि इदानीं बहुवचनं वदतु बालिका
अध्यापिका छात्राभिः न
अध्यापिकाभिः अध्यापिकाभिः
अध्यापिकाभिः
अध्यापिकाभिः क्रीडाङ्गणं गच्छति अध्यापिकाभिः क्रीडाङ्गणं अध्यापिकाभिः सह क्रीडाङ्गणं गच्छति उत्तमम् अस्तु अहं पुनः सर्वाणि अस्तु नारायणमहोदय अनन्तरं श्रीनिवासमहोदय अस्तु नारायणमहोदय नास्ति चेत् श्रीनिवासमहोदय
She near plays with her brother in the playground. Yesha Sodarena Saha Kridangane Kridati
Kridangane Kridati Sodarena Saha Her brother iti asti chet
One second Yesha Mama Maya Yesha Ta एतया सोदरेण सह
एतस्याः
सोदरेण सह क्रीडाङ्गणे क्रीडति
क्रीडाङ्गणे क्रीडति सो विपरीतदिशि वदतु महोदय
विपरीतदिशि ओके एषः एषः
उत्तमं महोदय सर्वे अवगच्छन्ति वा
भगिनि आन्सर् नाट् आडिबल् भगिनि केन् यु रिपीट् बिकास् द आन्सर् क्वश्चन् शीट् यु हव् गिवन् इस् डिफ़्रेण्ट् इन् एय्त् PDF यु हव् सेण्ट् वितौट् बुक् आर् बुक्स् ऐ केनाट् अप्टैन् नालेज् यु हव् गिवन् दट् That is 8-1 in the email.
Oh, remember, so I gave you a different one? Oh, I see. Okay, so what I will do is, I will, okay. No, it's not here, Kalu.
Doesn't matter.
Artama Navama Prashnaha Nasti. Is that correct?
Yeah. Astu, so we will do with this, okay? Without a book, I cannot obtain knowledge. Let's go forward with this. So, Mahodaya, he did a good job. So, Atra, so let me just say it again. Esha, Etasyaha, Sahodarena Saha, क्रीडाङ्गणे क्रीडति विपरीतदिशि एषः एतस्य सहोदर्या सह क्रीडाङ्गणे क्रीडति ओके दट्स् दि ओन्ली थिङ्ग् अस्तु विदौट् अ बुक् ऐ केनाट् ओब्टेन् नालेज् अस्तु नारायणमहोदय वदति वा अस्तु महेश महोदय
पुस्तकेन विना अहं ज्ञानं न गतवान् न प्राप्नोमि
बहुवचन
पुस्तकं
विना उत्तमं
अहं ज्ञानं न प्राप्नोमि बहुवचना अपि इदानीं वदामि
वदतु
पुस्तके पुस्तकैः विना अहं ज्ञानं न प्राप्नोमि
एकनिमिषं भगिनि लेट् हिम् फिनिश् हिस् सेण्टेन्स् बहुवचनं फार् द्वितीया विभक्ति
पुस्तकानि
पुस्तकानि विना
पुस्तकानि विना अहं ज्ञानं न प्राप्नोमि
अहं ज्ञानं न प्राप्नोमि अस्तु भगिनि प्रश्नं पृच्छतु
भगिनी पुस्तकं विना प्राप्तुं न शक्नोमि आल्सो केन् वि यूस् आर् न प्राप्नोमि दट् ओन्ली वि हव् टु यूस्
प्राप्तुं न शक्नोमि ज्ञानं प्राप्तुं न शक्नोमि
वि केन् यूस् दट् रैट्
आम् आम्
आम् धन्यवादः भगिनि
समान अर्थः एव अस्तु
धन्यवादः
अस्तु
भगिनी
वदतु
यु सेड् यूस् द्वितीया एण्ड् तृतीया केन् यु गिव् एन् एक्साम्पल् ऐ मीन् यूसिङ्ग् द सेण्टेन्स् प्लीस् ऐ डिन्ट् गेट् दट्
हि सेड् इट् लैक् वाट् हि सेड् वास् पुस्तकं विना अहं ज्ञानं न प्राप्नोमि पुस्तकेन विना अहं ज्ञानं न प्राप्नोमि तावदेव ओके अस्तु उमाकृष्णन् भगिनी
आं भगिनि
वदतु
अध्यापिका फेमिनिन् अध्यापिका
अध्यापिकां भगिनि अध्यापिकाम् अथवा अध्यापिकया
अध्यापिकया
अध्यापिकया विना
अध्यापिकया
विना
छात्रः फेमिनिन् छात्रा नास्ति
नास्ति करेक्ट् करेक्ट् नास्ति
ओके अध्यापिकया विना छात्रा नास्ति
द्वितीया विभक्ति उपयुज्य
अध्यापिकं विना
अध्यापिकां विना अध्यापिकां विना काम् अथवा
छात्रा नास्ति
अध्यापिकां विना अध्यापिकया विना
भगिनि वितौट् ए स्टूडेण्ट् मीन्स् छात्रया विना ओन्ली श्रुतं न छात्रया विना अध्यापक
आमामाम् अदर् वे उमाकृष्णन् भगिनी पुनः वदतु ऐ मिस्ड् इट् धन्यवादः भगिनि
अध्यापिकया विना
अध्यापिका न भगिनि विदौट् अ स्टूडेण्ट्
विदौट् अ स्टूडेण्ट् छात्रया विना अध्यापिका नास्ति
अनन्तरं करेक्ट् करेक्ट्
सो देन् स्टूडेण्ट् छात्रां
छात्रां विना अध्यापिका नास्ति उत्तमम् अध्यापिका नास्ति धन्यवादः भगिनि फार् मेकिङ्ग् द करेक्षन् धन्यवादः ओके अस्तु रम्या भगिनि पुल्लिङ्गपद पुल्लिङ्ग बहुवचनं वदतु पुल्लिङ्ग बहुवचनं
There are no teachers without students. Chatram vina adhyapakah nasti.
Atrava, atrava bhagini. Kim karoti bhagini? 13 va, 14 va?
There are no teachers male without students male.
Bahu vachanam kalo?
Bahu vachanam. Eka vachanam vadatu va?
Vadatu.
छात्रां विना
छात्रं विना
छात्रं विना अध्यापकः नास्ति छात्रेण विना अध्यापकः नास्ति
उत्तमं छात्रेण विना अथवा छात्रं विना ओके इस् देयर एनीबडी एल्स् अन्य कोऽपि अस्ति वा ओके ज्योति ओके अस्तु सो देर् आर् नो टीचर्स् विदौट् स्टूडेण्ट्स् अस्तु ज्योति भगिनि
आं भगिनि देर् आर् नो स्टूडेण्ट्स् विदौट् टीचर्स्
No, no. There are no teachers no. without students. Students okay. without students, there are no teachers. Let me put it that way. Okay. Without students, okay. there are no teachers.
There are no. Chatra bhi vina. Chatra bhi vina. Shikshik adhyapakah nasti bhagini. No.
So atra. So when you say chatra bihi, it is strilinga bahuvachana.
Strilinga bahuvachana.
Chatra bihi vina. So adhyapakaha, adhyapikaha is ekavachana. Adhyapikaha na santi. Chatra bihi vina, adhyapikaha na santi.
Adhyapikaha na santi.
Adhyapikaha na santi.
Santi.
Okay. Astha. सौन्दरं भगिनी
छात्रैः विना अध्यापकाः
न सन्ति अध्यापकाः न
सन्ति
उत्तमम् अस्तु परमेश्वरमहोदय
द्वितीयाविभक्तिः अध्यापकः न सन्ति
अध्यापकः नास्ति एकवचनं अध्यापकः नास्ति द्वितीयाविभक्ति उपयुज्य
छात्रः
अस्तु छात्रं विना अध्यापकः नास्ति. अस्तु वीणा भगिनी अत्र बहुवचनम् इत्यादिपत्ति आदिपत्ति छात्रान् बहुवचनम् इस् छात्रान् फार् द्वितीया विभक्ति छात्रान्
छात्रान् विना अध्यापकाः नास्ति न सन्ति सोरि
न सन्ति उत्तमं न सन्ति सर्वे अवगच्छन्ति वा विषयं विना सह छात्रैः मित्रैः भिः सर्वम् अवगच्छन्ति वा अस्तु इति अस्तु अस्तु
भगिनि
प्रश्नं पृच्छतु भगिनि ऐ केन् अण्डर्स्टाण्ड् यु पुनः वदतु सो सिङ्गुलर् या द सिङ्गुलर् अण्ड् प्लुरल् इट् अप्लैस् ओन्लि टु स्टूडेण्ट्स् नाट् टु अध्यापक
Bhagini, you have to repeat the question also. She was not audible.
Yeah, I couldn't hear. I think what she's saying is, will the teachers change Ekavachanam Bahuvachanam? That's what I think. So, the Ekavachanam and Bahuvachanam will change only if it says here. Without students, there are no teachers. Atra, I have given only one choice. Bahuvachanam only. The choice I gave was Dvitiya and Tritiya. That's it. Here it is Ekavachanam, here it is Bahuvachanam. And here it is Ekavachanam, here it is Bahuvachanam. So, you know, it doesn't change like that. Well, only these things will change.
Okay. Astu,
Vachani. Astu. Aham punah sarvan mute karomi. अस्तु नूतनविषयं पश्यामः
इदानीं भगिनि प्रश्नः
वदतु
सर्वान् कदा आगच्छति
सर्वान् इति सर्वशब्द खलु सर्व इति पुल्लिङ्गशब्द सर्व अत्र द्वितीया विभक्ति सर्वम् अत्र प्रथमा विभक्ति सर्वः सर्वौ सर्वे जना सुखिनो भवन्तु सर्वे आगच्छन्तु लैक् दट् सर्वे भवन्तु इति द्वितीया विभक्ति सर्वं सर्वौ सर्वान् बहुवचनम् आफ् द्वितीया विभक्ति सर्वशब्द
अवगतम्
अस्तु सो अत्र वयं फार् द बेनिफिट् आफ् कृते इति वदामः अथवा निमित्तम् इति अत्र पश्यन्तु पुत्रः अस्ति उपायनम् अस्ति जनकः पुत्रस्य कृते उपायनं ददाति पुत्रस्य कृते उपायनं ददाति इति क्रियापदम् उपयोगं कुर्मः चेत् तत्र चतुर्थीविभक्ति आगच्छति परन्तु एतत् रूपं चतुर्थीविभक्ति न परन्तु षष्टिविभक्तिरूपम् उपयुज्य पुत्रस्य कृते इति वयं वदामः पुत्रस्य कृते अत्र चतुर्थी विभक्तिरूपम् आगच्छति पुत्राय इति पुत्राय परन्तु इदानीं पुत्रस्य कृते इति पठामः जनकः पुत्रस्य कृते उपायनं ददाति पुत्रस्य कृते फार् हिस् बेनिफिट्
भगिनि अर्थं पुत्रार्थम् उपनयनं ददाति केन् दट् आल्सो बि यू
वी केन् ओन्ली से पुत्राय सो द अर्थं केन् बि यूस् ओन्ली वित् किमर्थं पठति लैक् दट्
इट्स् नाट्
पुत्रार्थम् इस् फार् पुत्राय इस् टु करेक्ट्
नो नो that is also for only putraya upayanam dadati putrasya krite upayanam dadati samana artha padam eva putrasya krite upayanam dadati putraya upayanam dadati putrasya nimittam upayanam dadati ityadi putraya upayanam dadati अहं मम पुत्री इति अस्ति चेत् कथं भवति बालिका पुस्तकं बालकः बालकः बालिकायाः कृते पुस्तकं ददाति बालिकायाः कृते पुस्तकं ददाति बालिकायाः षष्टिविभक्ति उपयुज्य अनन्तरं कृते इति पदं योजयामः बालिकायाः कृते पुस्तकं ददाति अथवा बालिकायै पुस्तकं ददाति
भगिनी कृते इस् फार् बेनिफिट् इस् इट्
बेनिफिट् बेनिफिट् बालिकायाः कृते ददाति वयं यदा ददाति इति क्रियापदम् उपयोगं कर्तुं शक्नुमः तथा पुत्रस्य कृते अथवा पुत्राय बालिकाय नलिन्यै अथवा नलिन्याः कृते बालिकायाः कृते इति वक्तुं शक्नुमः किमर्थं पुत्रस्य कृते बालिकायाः कृते वयं पुत्रस्य इति पदं जानीमः बालिकायाः इति पदं जानीमः वयम् तस्याः तस्य नलिनी नलिन्याः कृते पार्वती पार्वत्याः कृते इति वयं जानीमः नूतनरूपम् अवगन्तुम् आवश्यकता नास्ति नूतनरूपं किं पुत्राय बालिकायै नलिन्यै वयं नूतनरूपं कथं स्मरामः यदा वयं पूजां कुर्मः तत्र गणेशाय नमः नारायणाय नमः इति वदामः खलु नारायणाय नमः इति तदा एव पुत्राय उपायनं ददाति बालिकायै दुर्गायै नमः इति वदामः वयं दुर्गायै नमः तथा एव बालिकायै पुस्तकं ददाति पार्वत्यै नमः सरस्वत्यै नमः तथा एव नलिन्यै नमः इति वयं गणेशः नलिन्यै पुष्पं ददाति पुत्रः How will we say he takes it from the father?
Janakataha.
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 Janakataha is also correct. See, when we use Janakataha, it's like saying Putrasya Krite. Easy. Okay. So Janakataha is the proper form. Janakat.
Putra janakasya krita janakasya krite upayanam dadati.
Ah, putra
upayanam. Sorry.
Upayana. Supposing the putra is giving to the father, then we say putra janakasya krite upayanam dadati. Atava janakaya upayanam dadati. Then we say janakah putratah upayanam svikaroti. Atava putrat upayanam svikaroti. Avagachanti va sarve? Is there anyone who wants me to repeat it? Okay, I will repeat anyway. Astu. Putraha janakasya krite upayanam dadati. Janakasya krite. For the benefit of appa. Janaka. Putraha janakasya krite upayanam dadati. That is the easy form. Just like how we learned the easy form, janakah putratah upayanam svikaroti. Putratah. That is the easy form. Easy form is good. No, it doesn't make us less of a person for using it. Astu.
Totally.
Simpler,
better.
Simpler, better. Janakah putratah upayanam svikaroti. Putrah janakasya krite upayanam dadati. Dadati. Evameva. Balakah balika yah krite. Balakah balika yah krite pustakam dadati. Balika kim karoti? Balika balakatah pustakam svikaroti. This is the sarala bhasha. Astu. Nalini ikaranta srilinga. We always do pullinga, akaranta pullinga, akaranta srilinga, ikaranta. Idanim ikaranta srilinga. Nalini. Rameshah. Nalini rameshatah pushpam svikaroti. Rameshatah pushpam svikaroti. Rameshah kim karoti? Rameshah nalinyah krite. Nalinyah krite pushpam dadati. Sarala bhashaya vadamah. The traditional, sadharnataya. Katam vadamah? Janakah putraya upayanam dadati. Putraya. Srinivasaya namaha, Gopalaya namaha, Ganeshaya namaha, iti vadama kalu, samana rupam eva. Janakaha putraya upayanam dadati. Putraha janakat upayanam svikaroti. Putraha janakat upayanam svikaroti. Evam eva. Balakaha balika yai pustakam dadati. Yai iti agachati. Yai. Atra aya. Putraya. Atra yai. Balakaha balika yai pustakam dadati. Balika balakat pustakam svikaroti. Balakat pustakam svikaroti. Atra rameshah nalinyai pustakam dadati. Balika yai. Atra nalinyai. Ikara gacchati. Nalinyai pushpam dadati. Nalini rameshat pushpam svikaroti. Kimartam vayam taha iti upayogam kurmaha na at iti balakat, rameshat, janakat. Idanim pashya. उत्तरं वा
आं भगिनि लिङ्गभेदः नास्ति सः
उत्तमं लिङ्गभेदः नास्ति सुलभतया सम्भाषणं कर्तुं शक्नुमः सुलभतया सम्भाषणं कर्तुं शक्नुमः वयं समीचीनं अस्तु अत्र बालकात् जनकात् रमेशात् इति अस्ति परन्तु अत्र पश्यामः चेत् बालिकायाः इति एव आगच्छति बालिकायाः अत्र नलिन्याः फ्रम् नलिनी नलिन्याः इति अत्र भ्रमः भवति कन्फ्यूषन् आगच्छति खलु नलिन्याः पुस्तकं वा नलिन्याः स्वीकरोमि वा इति अतः एव नलिनीतः बालिकातः सुलभम् इति अस्तु पुत्रस्य कृते बालिकायाः कृते नलिन्याः कृते एव उपयोगं कुर्मः इदानीम् अस्तु
संस्कृतस्य कृते जीवन्
संस्कृतस्य कृते जीवन् उत्तमम् अत्र अत्र अस्ति खलु
भगिनि इफ् ऐ हव् टु मेक् अ स्टेट्मेण्ट् वयं राधिका भगिन्या तः संस्कृतशिक्षणं स्वीकुर्मः सेण्टेन्स् करेक्ट्
समीचीनं स्वीकुर्मः उत्तमम् संस्कृतशिक्षणं स्वीकुर्मः उत्तमं महोदय अस्तु अस्तु एकमेकं वदामः वा उषा भगिनी आरम्भं करोति वा उमा कस्य कृते
गोपालः
न न उमा
उमाया कृते उमायाः कृते
उमायाः कृते ददाति मधुरं ददाति अस्तु मधुरं ददाति मधुरम् अथवा पुस्तकं किमपि ददाति अस्तु भगिनि धन्यवादः शारदा भगिनि उमा किं करोति उमा
उमा
गोपालस्य कृते गोपालस्य कृते एव वदामः
गोपालस्य कृते पुस्तकं ददाति
पुस्तकं ददाति उत्तमं गोपिका भगिनी रामः अथवा उमा
रामः वा
रामः अथवा उमा किमपि
रामः पुष्पायाः रामः पुष्पायाः कृते सूचनां ददाति
सूचनां ददाति सूचनां ददाति उत्तमः सूचनां ददाति अस्तु अम्ब
भगिनी सूचनां विल् बि बहुवचनं
न सूचना इस् नोटिफिकेशन् आर् इन्स्ट्रक्षन् सूचना सूचना सो आल् दिस् विल् हाव् टु बी इन् टु द्वितीया द्वितीया सो इट् बिकम्स् आब्जेक्ट्स् खलु दिस् आर् आल् आब्जेक्ट्स्
सूचनाः
अस्तु अम्ब
उमा भगिन्याः कृते उपायनं ददाति
भगिन्याः कृते भगिन्याः कृते उपायनं ददाति अन्य किं वदति उमा
भगिन्याः कृते
उपायनं ददाति उपायनं ददाति अम्ब बहुवचनं मास्तु एकवचनमेव पर्याप्तं भगिन्याः कृते उपायनं ददाति उपायनं ददाति उत्तमम् अम्ब धन्यवादः
उपायनं भगिनि
गिफ्ट्
गिफ्ट् धन्यवादः.
अत्र अस्ति खलु उपायनम्. अस्तु सविता भगिनी. अस्तु सागरी भगिनी.
आं भगिनि. रामः मित्रस्य कृते उपायनं ददाति.
उपायनं ददाति. अस्तु इदानीं वयं टाग् इति अस्ति खलु टाग् तत् कुर्मः. टाग् इत्युक्ते वि केन् गिव् टु अदर् पीपल् अत्र. ओके अस्तु. अत्र सागरी भगिनी, वाट् विल् यु गिव् केतकी भगिनी? अत्र अत्र अस्ति खलु आवलि. आवलीं स्वीकृत्य किं ददाति इति वदामः वयं. सागरी भगिनी,
भगिनी वि कान्ट् सी दिस्.
यु केनाट् सी दिस्. नो, ऐ क्लोस् द स्क्रीन् भगिनि. तत्र किमपि नास्ति. किमपि नास्ति.
ऐ डोण्ट् अण्डर्स्टाण्ड् भगिनी वाट् यु आर् सेयिङ्ग्.
या सो अत्र for examples you can give your own example is what I'm saying. So now that we know how to form sentences, swasya vakyam vadato. So in order to make it easy, I thought we can just pick people from this group. You can go to the next person.
Okay.
For the next person,
केतक्याः कृते पुस्तकं ददामि.
उत्तमम्. केतकी भगिनी, वाट् विल् यु गिव् श्रीनिवास महोदय? भगिनि वदतु, वाट् विल् यु गिव् श्रीनिवास महोदय? उत्तमं. श्रीनिवास महोदयस्य कृते पुष्पं ददामि. श्रीनिवास महोदय, वाट् विल् गिव् नारायणमूर्ति महोदय?
अहं नारायणमूर्ति महोदयस्य कृते मधुरं ददामि.
उत्तमं. मधुरं ददाति. नारायणमूर्ति महोदय, वाट् विल् यु गिव् महेश? ददामि एव. ददामि एव. सम्यक् सम्यक्. नारायणमूर्ति महोदय, भवान् वदतु. नास्ति सः. अस्तु महेश महोदय. उमाकृष्णन् भगिनी,
अहं उमाकृष्णन् भगिन्याः कृते अङ्कनीं ददामि.
अङ्कनीं ददामि. सर्वत्र द्वितीयाविभक्तिरूपमेव आब्जेक्ट्, द्वितीयाविभक्तिरूपमेव. अस्तु उमाकृष्णन् भगिनी, बीना भगिनीं बीना भगिनी वदतु.
बीना भगिन्या कृते भगिन्याः कृते अहं स्यूतं ददामि.
स्यूतं ददाति. उत्तमं भगिनि. बीना भगिनि वदतु. सौन्दरं भगिनि,
अहं सौन्दरं भगिन्याः कृते कदलीफलं ददामि.
उत्तमं. कदलीफलं ददाति. उत्तमं. सौन्दरं भगिनि, रम्या भगिनि.
अहं रम्या भगिन्याः कृते फलं ददामि.
फलं ददाति. उत्तमं. रम्या भगिनि. ज्योति,
अहं ज्योतिभगिन्याः कृते पुस्तकं ददामि.
हा उत्तमं. ज्योतिभगिनी परमेश्वर महोदय.
अहं परमेश्वर महोदय महोदयस्य कृते फलं ददामि.
फलं ददामि. फलं ददाति भवती. अस्तु परमेश्वर महोदय. सविता भगिनी.
अहं कविता भगिन्याः कृते पुस्तकं ददामि.
पुस्तकं ददाति. अस्तु सविता सविता भगिनी. उषा उषा भगिनी.
अहम् उषा भगिनी कृते स्यूतं ददामि.
भगिन्याः कृते
भगिन्या उषा भगिन्याः कृते स्यूतं ददामि.
भगिन्याः
भगिन्याः कृते स्यूतं ददामि.
स्यूतं ददाति. उत्तमम्.
ददाति इत्
नो 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 यु से ददामि ऐ से ददाति.
अहं वदामि भगिनि.
वदतु भगिनि. इदानीम् अस्ति वा वदतु.
अहम् उषा भगिन्याः कृते भगवद्गीतापुस्तकं ददामि.
उत्तमम् उत्तमम्. अस्तु उषा भगिनि इदानीं वदतु.
अहं मालत्याः कृते
उपायनं ददाति. उत्तम. अस्तु शारदा शारदा भगिनी. गोपिका गोपिका इति वदतु. भगिनी मास्तु गोपिका. करदूरवाणीं ददाति. उत्तमम्. सर्वत्र यत् ददाति तत् द्वितीयविभक्तिरूपं स्वीकरणीयम्. अस्तु गोपिका भगिनी. मां मह्यं. सो फार् मी वेन् यु गिविङ्ग् मी ऐ से मह्यं. मह्यं किं ददाति गोपिका भगिनी? सो यु से फार् यु फार् यु यु से okay for right now you say tubhyam. I will tell you later. Tubhyam
tubhyam.
Aham
suvarna nanakam dadami.
Suvarna nanakam dadati. Dhanyavada bhagini. Aham mama ambayah krite aham mama ambayah krite aalinganam dadami. Aalinganam dadami. अम्बा भवती वदति वा भवत्याः पुत्र्याः कृते किं ददाति?
अहं पुत्र्याः कृते धनं ददाति. धनं ददामि.
धनं ददाति वा? धन्यवादः. अहं स्वीकरोमि. अस्तु सर्वे अवगच्छन्ति वा विषयं किम् इति? अस्तु पुनः वयम् अभ्यासपुस्तकं प्रति गच्छामः. अत्र एतत् अस्ति. एतेषु वाक्येषु पदानि अव्यवस्थानि सन्ति. सो अत्र किम् अस्ति अहं लिखामि. एवम् एकनिमिषम्. अस्तु संस्कृतभाषायां अस्तु
वर्ड्स् आर् नाट् इन् आर्डर्.
या एक्साक्ट् करेक्ट्. रामः शाकलेहं खादति. रामः चाकलेहं खादति. वयं सम्यक् अवगन्तुं शक्नुमः खलु. प्रथमाविभक्ति कर्ता चाकले हम् अम् इति अस्ति, अतः द्वितीया विभक्ति चाकलेहः इति पदं, चाकलेहम् इति द्वितीया विभक्ति, खादति खादति इति. परन्तु एकनिमिषः, अस्तु, इदानीं खादति खादति चाकलेहम् चाकलेहम् रामः इति अस्ति चेत् वयं कथं कथं जानीमः कर्ता का, क्रियापदं किम् इति? रूपं दृष्ट्वा खलु. खादति क्रियापदम्. अनन्तरं ओके, रामः इति प्रथमा विभक्ति, कर्ता रामः इति कर्ता, चाकलेहम् इति द्वितीया, दट् इस् कर्मपदम् इति अस्ति. सो अत्र अपि तथा एव करोति सः. एम् ऐ क्लियर्? सम्बडि सेड् ऐ एम् नाट् क्लियर्. ऐ एम्
ऐ थिङ्क् अम्बा
इप नौ इट् इस् क्लियर् आर्
भगिनि नौ
okay amba you have to adjust something amba okay I don't know so astu atra karoti saha dineshah mitraihi pratidinam abhyasam iti asti pratamam vayam kim karaniyam ityukte kriya padam kim kriya padam karoti pratamam karoti iti asti che प्रश्नः उदयति किं करोति इति. सो यत्र क्रियापदं करोति इति अस्ति, प्रश्नः अस्ति किं करोति इति. किं करोति? अभ्यासं करोति. सो अभ्यासं, सो करोति इति स्वीकृत्य अभ्यासम् इति पदस्य पार्श्वे स्थापयामः. अभ्यासं करोति इत्येव क्रियापदं. कः अभ्यासं करोति? अत्र कर्ता का?
दिनेशः.
उत्तमं. दिनेशः अभ्यासं करोति. अस्तु, यत्र वयं सः इति पश्यामः, सः इति पदम् अस्ति चेत् तृतीयाविभक्तिरूपम् एव आगच्छति खलु. तृतीयाविभक्तिरूपम् एव मित्रैः सह, मित्रैः सह पार्श्वे पार्श्वे स्थापयामः. मित्रैः सह, सः मित्रैः न, मित्रैः सह. दिनेशः मित्रैः सह अभ्यासं करोति. प्रतिदिनम् इति अस्ति, कुत्रापि स्थापयामः. दिनेशः मित्रैः सह प्रतिदिनम् अभ्यासं करोति, अथवा दिनेशः प्रतिदिनं मित्रैः सह अभ्यासं करोति इति अस्ति. बहु सुन्दरं खलु. सो अतः पदस्य अन्तिमरूपं किम् इति सम्यक्तया वयं जानीमः चेत् स्पष्टं भवति. अपि च मित्रैः सह, केवलं मित्रैः इति लिखामः चेत् स्पष्टं नास्ति. मित्रैः सह एव लेखनीयम्. एवमेव प्रतिदिनं, दिनेश इति वदामः चेत् सम्बोधनं भवति. हे दिनेश इति वदामः. अतः एव विसर्गस्य आवश्यकता अस्ति. मित्रैः विसर्गः लेखनीयम्. अस्तु, अस्तु आगतवान् सः कः भवता अत्र कः भवता सः आगतवान् कः भवता सः आगतवान् अस्तु कः भवता सः आगतवान् उत्तमम् कलहं सः सः करोति सर्वैः अत्र
सः
करोति सः
सर्वैः सः
सः कलहं
कलहं करोति उत्तमं सः सर्वैः सः
सर्वैः सः कलहं करोति
कलहं करोति उत्तमं सः सर्वैः सः कलहं करोति अस्तु अत्र आगच्छामि वा अहम् अपि सः भवत्या
अहमपि भवत्या सह
अहमपि भवत्या सह आगच्छामि वा अहमपि भवत्या सह आगच्छामि वा उत्तमम् अस्तु युद्धं सैनिकः सह करोति शत्रुभिः
सैनिकः
शत्रुभिः सह
युद्धं करोति
युद्धं करोति उत्तमं शत्रुः शत्रुभिः भवति भवत्या भवान् तत्र करोति वैद्यः सह रोगिभिः सम्भाषणम् उत्तमं वैद्यः रोगिभिः सह
सम्भाषणं
करोति उत्तमं ललिता सह कृतवती चर्चाम् अध्यापिकाभिः अत्र ललिता सह न आगच्छति खलु सः इति योजयामः चेत् विभक्तिरूपमेव अध्यापिकाभिः सह सः सो अत्र ललिता एव अस्ति सो सो द वर्ड् वास् नाट् मोडिफैड् इफ् नाट् मोडिफैड् मीन्स् प्रथमा विभक्ति ललिता अस्ति ललिता करोति पठति इति ललितया सह इति अस्ति चेत् अस्तु ललितया सह इति वदामः इदानीं ललिता एव अस्ति अत्र तृतीया विभक्तिरूपं कुत्र अस्ति अध्यापिकाभिः एव ललिता अध्यापिकाभिः सह चर्चां कृतवती इत्येव अस्ति अवगतम् अस्तु अस्तु अहम् एकनिमिषं पश्यामि चतुर्थी नास्ति वा अस्तु एकनिमिषं पश्यामि किमपि द्रष्टुं शक्नोमि वा इति अस्तु सो अत्र प्रश्नः खलु सो अत्र कस्य कृते इति प्रश्नः आगच्छति खलु अत्र मास्तु एकनिमिषं क्षम्यताम् अत्र कस्य कृते उमा कस्य कृते मधुरं ददाति इति एव प्रश्नः कस्य कृते गोपालस्य कृते रामः पुष्पायाः कृते सूचनां ददाति प्रश्नः कः अत्र कस्याः कृते किम् इत्युक्ते उत्तरम् उत्तरं पश्यतु तत्र पुष्पायाः कृते इत्येव उत्तरम् अतः प्रश्नः अस्ति कस्याः कृते अत्र शिक्षकस्य कृते इति अस्ति प्रश्नः कः
कस्य कृते
कस्य कृते उमा कस्य कृते किं ददाति इति प्रश्नः उमा कस्य कृते किं ददाति उमा शिक्षकस्य कृते पुस्तकं ददाति उमा कस्याः कृते किं ददाति उमा पुष्पायाः कृते उपायनं ददाति अथवा सूचनां ददाति अत्र सर्वत्र किम् एव वदामः प्रश्ने प्रश्ने किम् एव काम् कम् इति मास्तु किम् एव उमा कस्य कृते किं ददाति एव प्रश्नः अनन्तरम् उत्तरमस्ति पुष्पायाः कृते मित्रमस्ति चेत् अपि कस्य कृते एव परन्तु वयं जानीमः चेत् वयं जानीमः पुष्पायाः कृते उमा ददाति इति वयं जानीमः चेत् कस्याः कृते इति वक्तुं शक्नुमः अवगच्छन्ति वा अस्तु इति अहं चिन्तयामि अस्तु प्रश्नाः सन्ति वा नो चेत् विरमाम शान्तिमन्त्रं वदामः ॐ सर्वे भवन्तु सुखिनः
सर्वे सन्तु निरामया सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखभाग् भवेत्
गुरुभ्यो
नमः हरिः ओम्
धन्यवादः
धन्यवादः भगिनी धन्यवादः
भगिनी
धन्यवादः